ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। श्रीशुक उवाच तत प्राचेतसोऽसिक्न्या मनुनीत स्वयंभुवा षष्ठीं सञ्जनयामास दुहित्रीः पितृवत्सलाः। दशधर्माय कायेन्दोर्द्विषत्रिणवदत्तवान् भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः। नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु। यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः। भानुर्लम्बाककुब्जामिर्विश्वासाध्या मरुत्वती। वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्या सुतान् शृणु। भानोऽस्तु देवऋषभ इन्द्रसेनस्ततो नृप। विद्योता आसील्लम्बायास्ततश्च स्तनयत्नवः। ककुपः सङ्कटस्तस्य कीकटस्तनयो यतः। भुवो दुर्गाणि जामेय स्वर्गो नन्दिस्ततोऽभवत्। विश्वे देवास्तु विश्वाय अप्रजांस्तान् प्रचक्षते। साध्यो गणस्तु साध्याय अर्थसिद्धिस्तु तत्सुतः। मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः। जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः। मौहूर्तिका देवगणा मुहूर्तायाश्च जग्गिरे। ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम्। सङ्कल्पायाश्च सङ्कल्पः कामसङ्कल्पजः स्मृतः। वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु। द्रोणप्राणो ध्रुवोऽर्कोऽग्निर्दोषो वसुर्विभावसुः। द्रोणस्यापि मते पत्न्या हर्षशोकभयादयः। प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः। ध्रुवस्य भार्या धरणीरसूतविविधाः पुरः। अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः। अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः। स्कन्दश्च कृत्तिका पुत्रो ये विशाखादयस्ततः। दोषस्य सर्वरी पुत्र शिशुमारोहरे कला। वसोराङ्गिरसी पुत्रो विश्वकर्मा कृतिपतिः। ततो मनुश्चाक्षुषोऽभूत् विश्वे साध्या मनोसुताः। विभावसोरसूतोषा व्युष्टं रोचिषमातपम्। पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु। सरूपासूतभूतस्य भार्या रुद्रांश्चकोरिषः। रैवतोजो भवो भीमो वाम उग्रो विशाकपिः। अजैकपातहिर्बुध्न्यो बहुरूपो महानिति। रुद्रस्य पार्श्वदास्यान्ये घोराभूतविनायकाः। प्रजापतेरङ्गिरसः स्वधा पत्नी पितृनथ। अथर्वाङ्गिरसंवेदं पुत्रत्वे चाकरोत् सति। वृषाश्वोर्चिषि भार्यायां धूम्रकेशमजीजनत्। धिषणायां वेदशिरो देवलं वयुनं मनुम्। तार्क्ष्यस्य विनता कद्रुः पतङ्गी यामिनीति च। पतङ्ग्यसूतपतगान् यामिनी शलभानथ। सुपर्णासूतगरुडं साक्षाद् यज्ञेशवाहनम्। सूर्यसूतमनूरूं च कद्रुर्नागाननेकषः। कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत। दक्षशापात् सोनपत्यस्तासु यक्ष्मग्रहार्दितः। पुनः प्रसाद्यतं सोमः कलालेभे क्षयेदिताः। शृणुनामानि लोकानां मातॄणां शङ्कराणि च। अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्। अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला। मुनिक्रोधवशाताम्रा सुरभिः सरमातिमिः। तिमेर्यादो गणा आसन् स्वापदाः सरमासुताः। सुरभेर्महिषा गावो ये चान्ये द्विषभा नृप। ताम्रायाः स्येन गृध्राद्या मुनेरप्सरसां गणाः। दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः। इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः। अरिष्टायाश्च गन्धर्वः काष्ठाया द्विषभेतराः। सुतादनोरेकषष्टिस्तेषां प्राधानिकान् शृणु। द्विमूर्धा शम्बरोरिष्टो हयग्रीवो विभावसुः। अयो मुखः शङ्कुशिरा स्वर्भानुः कपिलोरुणः। पुलोमा विषपर्वा च एकचक्रोऽनुतापनः। धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः। स्वर्भानो सुप्रभां कन्यामुवाह नमुचिः किल। विषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुशो बली। वैश्वानरसुतायाश्च चतस्रश्चारुदर्शनाः। उपदानवी हयशिरा पुलोमा कालका तथा। उपदानवीं हिरण्याक्ष कतुर्हयशिरां नृप। पुलोमां कालकां च द्वे वैश्वानरसुते तु कः। उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदितः। पौलोमाः कालकेयाश्च दानवा युद्धशालिनः। तयोः षष्टिसहस्राणि यज्ञग्नांस्ते पितुः पिता। जघानस्वर्गतो राजन्नेक इन्द्रप्रियङ्करः। विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत्। राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागतः। अथातः श्रूयतां वंशो योदितेरनुपूर्वशः। यत्र नारायणो देवः स्वांशेनावतरद्विभुः। विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः। धाता विधाता वरुणो मित्र शक्र उरुक्रमः विवस्वत श्राद्धदेवं संज्ञासूयत वैमनुम् मिथुनं च महाभागा यमं देवं यमीं तथा सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि छायासनैश्चरं लेभे सावर्णिं च मनुं ततः कन्यां च तपतीं या वै वव्रे संवरणं पतिम् अर्यं नो मातृका पत्नी तयोश्चर्षणया सुताः यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता पूषानपत्यः पिष्टादो भग्नदन्तो भवत्पुरा योऽसौ दक्षाय कुपितं जहास विवृतद्विजः त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् तं वव्रिरे सुरगणा स्वस्त्रियं द्विषतामपि विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।